किं सिद्धेः च लकाराणां च समग्रदृष्टिः इति पाठस्य चिन्तनवर्गमस्ति. अद्य पुरुषवचनविधिः इति परिच्छेदस्य आरभामहे. शर्मिला भगिनी, भवती पठति किल?
पुरुषवचनविधिः विवक्षायां प्रथमपुरुषः, मध्यमपुरुषः, उत्तमपुरुषः, एकवचनं, द्विवचनं, बहुवचनं च प्रत्ययाः विहिताः. सूत्राणि च इमानि: लिङ्गस्त्रीणि प्रथममध्यमोत्तमाः, तान्येकवचन द्विवचन बहुवचनान्येकषः. युष्मत्पपदे युष्मद्युपपदे समानाधिकरणे हानिन्यपि मध्यमः, अस्मद्युत्तमः, शेषे प्रथमः. यथा यदि वक्तुः इच्छा अस्ति भूधातुः प्रथमपुरुषस्य एकवचने तर्हि तिप्रत्ययः विहितः. भूयोगः तिप्, यदि वक्तुः इच्छा अस्ति तृत्, आत्मनेपदे धातुः वर्तते लति, उत्तमपुरुषस्य द्विवचने तर्हि वत्तिप्रत्ययस्य विहितः. वृतयोगः वहि, यः कोऽपि लकारः भवतु, नाम प्रत्ययाः एते एव अष्टादशः. अतः यद्यपि वक्तुः इच्छाम् अनुसृत्य दशानां लकाराणां भेदाः सन्त्येव आरम्भे, लट् लोट् लङ् इत्यादिकं, परन्तु इदानीम् अभेद एव दृश्यते. भूयोगः लट् भूयोगः
भूयोगः लङ्. किञ्चित् सारांशं वदति किल?
भूयोग लिट् पर्यन्त पठित्वा वदामि. भूयोगः लङ् भूयोगः ति, भूयोगः लिट् भूयोगः ति. अत्र तिप्तस्ति इति वयम् अष्टादश प्रत्ययाः पठिता, तत्र नव परस्मैपदि च नव आत्मनेपदी अस्ति. तदनन्तरं तत्र कथं प्रथमपुरुष, मध्यमपुरुष, उत्तमपुरुष इति विभाजनं करणीयं च, एकवचनं, द्विवचनं, बहुवचनं, कथं कः प्रत्ययः कदा उपयुज्यमहे, सूत्राणि पञ्चसूत्राणि अस्ति. तत्र प्रथम अस्ति तिङ्गस्त्रीणि, त्रीणि प्रथम, मध्य, मध्यम, उत्तमाः. तत्र अष्टादशप्रत्ययानां नवप्रत्यये 3/3 इति विभाजनम् अस्ति. त्रीणि प्रथमपुरुषे त्रीणि, मध्यमपुरुषे त्रीणि, उत्तमपुरुषे इति. तदनन्तरम् इदानीं ये त्रीणि अस्ति तानि एकवचन, द्विवचन, बहुवचनानि, एकशः अस्ति. इदानीं वयं जानीमः एते प्रत्ययाः तु एकडारात् एका संख्या इति कार्ये अस्ति. अतः युगपत् द्वे संज्ञा इत्यादयः न तिष्ठति. इदानीं यः सूत्रः एव वदति तानि एकवचन, द्विवचन, बहुवचन, एकशः. सो विदिन् द त्री वन् एट् अ टैम् कान्सिक्यूटिव्लि एकवचन, द्विवचन, बहुवचन भवति इति अहं मन्ये. तदनन्तरं युष्मद् उपपदे समानाधिकरणे स्थानीनि अपि मध्यमः. तत्र त्वं मध्यमपुरुष कदा अपि दीयते च. उत्तमपुरुष अस्मत् शब्दप्रयोग कुर्मः चेत् तत्र लास्ट् 3 आर् टु बि यूस्ड् फार् उत्तमपुरुष. शेषे प्रथमः इति अस्ति. अहं ऐ डिडन्ट् रीड् एनिथिङ्ग् एल्स्.
भगिनि, स्थानि स्थानि इत्यस्य अर्थं अहं मन्ये स्थानि इत्यस्मिन् यदा अहं वदामि तत् त्वं वदसि इति वदामि चेत् त्वम् इति युष्मत्पदस्य रूपम् अस्ति वाक्ये. रूपं नास्ति अपि त्वम् इति वक्तुम् इच्छामः चेत् वदसि इति वाक्यं समीचीनम् एव. अतः एव स्थानी इति वार्ता अस्ति इति मन्ये. Is it making sense? Sthani means you does not need to be in the sentence. It can be implied also.
Yes. So wherever it is implied, and the implication is for a you kind of a word, even there we are supposed to use Asmat.
And the same thing for the Asmat. All the other words I think come as Anuvritti for the Asmat Yuttamah. All the words from the previous sutra to the 104 Yushmad Padam.
Bhagini, can you explain Eshishaha which is the word name? Eshishaha Artha Sanyaka
Eshishaha. Eshishaha is Pratyekam Mahodaya, each and every one. Pratyekam, of the Trini, like, among the 18, the sets of three are Prathama, Madhyama, Uttama, among the first nine, and then among the next nine. Group them Trini, Trini, and they become Prathama, Madhyama, Uttama. And then within the three, each one, Ekashaha, Pratyekam, becomes Ekavachana, Bahuvachana, Bahuvachana.
Although I think these sutras will be covered later, and it's okay if we don't understand the full meaning for now.
Right.
Tadanantaram, atra diyate, विवक्षानुसारं वयं लट् लकार लङ् लकार लिट् लकार इति चिन्तयामः. तदनन्तरं यदा वयं प्रत्यययोजयामः तत्र पुनः अभेदः भवति. यद्यपि वयं भूयोगः लट् लकारे भूयोगः लट् इति आरम्भं कुर्मः, परन्तु भूयोगः यदा योजयामः तदा तित् इति लट् लकार अस्ति, लङ् लकार अस्ति, लिट् लकारे अस्ति, भेदं न दृश्यते. अहं चिन्तयामि तदनन्तरं प्रक्रिया पुनः.
आं भगिनि, प्रथमं सामान्यमेव अस्ति, अनन्तरं भेदः भवति. धन्यवादः भगिनि. ममेला भगिनी, भवती पठितुमिच्छति किम्?
अहं पठामि भगिनि, किन्तु मम अवगमनं सम्यक् नास्ति. अहं पठितुं प्रतिपादितुं प्रयत्नं करोमि. तिङ् प्रत्ययानां सिद्धिः. लादिकारे तृतीयाध्याय चतुर्थपाद अष्टसप्ततिः सूत्रात् सूत्रतमे तृतीय अध्याय चतुर्थ पाद द्वादश अधिक एकशतम् पर्यन्तम् अपि च प्रत्यय आदेश सप्तम अध्याये प्रथम पादे प्रथम सूत्रात् अष्टम सप्तम अध्याय प्रथम पादे नव 49 सूत्र पर्यन्तम् क्षम्यता
एकोनपञ्चशत् इति
एकोनपञ्चशतं पर्यन्तं सूत्रपर्यन्तं तिङ् प्रत्ययाः सिद्धाः भवन्ति एभिः सूत्रैः मूलाः तिङ् प्रत्यया ये दशानां लकाराणां कृते समाना विभिन्नानि रूपाणि स्वीकृत्य लट् लोट् लङ् इत्यादिना लकाराणां सिद्ध तिङ् प्रत्यया भवन्ति यथा तिप् लटिति लोटि तु तात् लङि त इत्यादिकं भवति अतः अत्र पुनः भेद आयाति वदति लकार अधिकारी तृतीय अध्याय चतुर्थ पादे 78 ऑल द लकार अधिकारी तत्र दीयते अपि च प्रत्यय आदेश इट इज इन 7th अध्यायात् ऑल तिङ् प्रत्ययास् आर् गिवन् देर् बट् दे आर् सिद्धास् दे आर् बट् ऐ एम् ट्रैङ्ग् टु सी द नम्बर्स् एण्ड् ऐ डोण्ट् सी या दे आर् भ्याम् दिस् यस् यस् दे आर् आल् तिङ्ग् प्रत्ययास् इन् सप्तम अध्याय आल् द थिङ्ग्स् आर् डिफैन्ड् देर्
Okay, so the transformation of the trings for each lakara.
Like, it happens in 7th adhyaya.
Okay, yeah.
Yeah, I think that's what happens. I think you get all the lakara adhikaras in 3rd adhyaya. Only when you want to derive those particular forms, those are applied in 7th adhyaya. Is that my understanding correct?
Yeah, I think the transformation of the first we start with the stiptasthi and the, which goes to which lakara in the 3rd chapter, and then in the 7th chapter the thing gets transformed for each lakara.
Oh yeah, yeah, okay. So atha tatra puna veda ayati depending on different lakaras.
Right.
So that's about it, I think, right?
I think that's all it is.
Okay, should I read ahead?
Please proceed.
Sarvadhatuka pratyayaah ardhadhatuka pratyayaah cha arambhe yete sarve ting pratyayaah ting shit sarvadhatukam tritiya adhyaya chaturtha pada त्रयोदश अधिक एकशतम् इत्यनेन सार्वधातुक संज्ञा इयं पाणिनीयशैली प्रथम सर्वे समान इति वदति सः तदा अन्यसूत्रेण अपवाद उक्त येन भिद्यन्ते प्रथमतया सामान्यं दीयते यदा तदा विशेषः परस्मैपदम् आत्मनेपदम् अपि तथा सार्वधातुकम् आर्धधातुकम् अपि तथा अन्यत् उदाहरणं कर्तरि शप् इत्यनेन सर्वेभ्य धातुभ्य शप् तदा अपवादत्वेन गणम् अनुसृत्य विभिन्नाः विकरणप्रत्ययाः विहित दिवादिभ्यश्यन् स्वादिभ्यश्नु इत्यादय अस्तु तत्र पाणिनीय महर्षिणा शैली अत्र उच्यते किं कृतम् इत्युक्ते स एक ब्राड् ऐ मीन् I think more Purmat Smin class Made Uktavan, he classifies the everything on top and then Yada default mode Made he defines and Yadi Hum we want to derive certain forms then other sutrams are applied as apavada rupena, like for example kartrishap itself we know like it applies to all ganas, it is not specific only to vadi gana, but as we get into the other ganas the other sutras anyat sutram agatya apavada rupena tat sutram tishtati udaranat divadibhyashyan swadibhyashnu iti tataiva atma sarvadatukam ardhudatukam api tataiva uktavan aham trini sutani asti kila what is that
sarve
the shaili is that's what he says it is followed. Let me remember those three sutras. We just did one lesson before this, I think.
Yeah.
And it was.
I think it was nit and udato nito.
Udato nito. So then he says, sheshat atma parasmai padi. Something like that. So that is the shaili he is following. So
anudatanyataha atmane padam swaritanyataha kartari kriya padam and then sheshat kartari parasmai padam.
Sheshat kartari padam. Dhanyavada bhagini tadeva. So he just classifies I think the most common, what is common, I think he specifies on top and only when he gets into finer details then he uses other sutras to, as the Apavada Sutra. So I guess Kartari Shap must be Bhavadi Gane Bhava Bhava Dhatu Santi Aham Manye compared to Divadibhya and Swadibhya. So he is having a lot more Dhatus than other ganas.
So, I'm thinking it is more like a super class, like he gives a general
term. Super class.
And then he carves out smaller sets within that or takes them away.
Yeah.
I think default is a good term.
Default, he is like that. So, that's about it, Bhagini. I mean, that's what I got to know. But if anyone has to add anything to it or...
Anye kim api kinchit vattum icchati kim? Okay. Arabin Mahodaya Bhavan Patitam icchati?
Dhanyavada, Bhagini.
Dhanyavada.
No, Bhagini. एवं चेत् कर्त्रार्थे कर्तरी शप् इत्यस्य सर्वेषां लकाराणां कृते प्रसक्तिः भविष्यति. कर्तरी शप् तृतीयाध्यायस्य प्रथमपादस्य अष्टषष्टिसूत्रात् धातुतः शप् प्रत्ययः भवति. कर्त्रार्थकः सर्वधातुकप्रत्यये पदे अनुवृत्तिसहितसूत्रं धातोः शप् प्रत्ययः परश्च कर्तरी सर्वधातुके. अत्र कर्तरी शप् इति सूत्रस्य विवरणं दत्तमस्ति. यदि विवक्षा कर्त्रार्थे अस्ति एवं प्रत्ययः तिंशित् सर्वधातुकम् इति सूत्र अन्तर्गतः अस्ति कृत्वा सर्वधातुकम् भवति चेत् तत् कर्तरिशप् इति प्रत्ययः विधीयते प्रक्रियायाम्. धातोः परश्च धातोः परम् प्रत्ययः शप इति द्वितीयते यदि कर्तरी सर्वधातुके कर्त्रार्थे एवं सर्वधातुकम् अपि च एवम् अस्य सूत्रस्य अर्थम्
सार्वधातुक प्रत्ययः धातोः परः यः प्रत्ययः आगच्छति सः सार्वधातुकः अस्ति चेत् शप् विहितः
सर्वधातुकम् एवं कर्त्रार्थे अपि चेत् एव कर्मणि अर्थे अभावे अर्थे शप् इति न आयाति सर्वधातुकम् अपि तु
प्रत्ययः एव सार्वधातुकः
प्रत्यय एव तिंशित् सर्वधातुकम् इति प्रत्ययस्य संज्ञा अस्ति तिङ् प्रत्ययः एवं षित् प्रत्ययः कर्त्रार्थे अस्ति ते प्रत्ययः धातोः परं विधीयते शप् कर्तरि शप् इति सूत्र विधिसूत्रेण तदनन्तरं विवक्षा अनुगुणं धातुगणं मनुसृत्य तत्र शप् इति प्रत्ययस्य स्थाने अन्यप्रत्ययः विधीयते धातुगणम् अनुसृत्य यथा अदादिभ्य शप् किन्तु शप् लोपः भवति जुहुवात्यादिभ्यः श्लु लुक् भवति लोपः दिवादिभ्यः श्यन् स्वादिभ्यः श्नु तुदादिभ्यः शः रुजादिभ्यः स्नम् तनादिकृण्भ्य उः क्रयादिभ्यः स्ना इति अपवादसूत्राणि दत्तमस्ति कर्तरि शप् इति उत्सर्गसूत्रं तत्सूत्रस्य स्थाने अपवादतत्वेन श्यन् श्नु स्ना शम् उ स्ना इति अपवादप्रत्ययाः विधीयन्ते धन्यवादः भगिनि
किञ्चित् अपि वक्तुम् इच्छति किल
न भगिनि धन्यवादः
सेतुराम् धन्यवादः सेतुराम् महोदय भवान् पठितुमिच्छति
पठामि अत्रापि महत्वपूर्णो बिन्दुः सर्वे सिद्धाः तिङ्प्रत्ययाः सार्वधातुकाः भवन्ति चेत् तर्हि कर्तृत्वे सर्वेषु दकारेषु कर्तरि शप् इत्यस्य विभक्तिः एवं चेत् गुणभेदः भविष्यति सर्वेषु लकारेषु परन्तु तथा नास्ति चतुर्षु एव लकारेषु गणीयो भेदः दृश्यते लति लोटि मणि विदिन् च षट् तु लकारेषु गणीयभेदो नास्ति लटि लृटि मणि लुटि तुणि आशीर्णि च अतः कथञ्चित् येषां लकाराणां सिद्धप्रत्ययाः सार्वधातुकाः न स्युः पाणिनिः येषां लकाराणां सिद्धप्रत्ययानाम् आर्धधातुकत्वं साधयति मार्गद्वयेन अग्रे भगिनी अग्रे पठामि वा
किञ्चित् वदतु महोदय
अत्र तिङ्प्रत्ययाः सर्वधातुकः भवति चेत् तदा कर्तरि प्रत्ययस्य विभक्तिः आयाति तत्र गुणभेदः भविष्यति सर्वेषु लकारेषु परन्तु अत्र लिखितः कर्तृषु लकारेषु गणभेदः न दृश्यते. कारणः अस्ति ते ये लकाराः सार्वधातुक सार्वधातुकप्रत्ययाः तस्य प्रसक्तिः अस्ति एगणे. लति लोति लिङि विधिलिङ् च ये लकारेषु गुणभेदः अस्ति. षट्सु लकारेषु गुणभेदः नास्ति. लिति लुटि
महोदय गुणभेदः न गणम् अनुसृत्य भेदः.
ओ गणीयभेदः. ओके ओके.
गणम् अनुसृत्य विकरणप्रत्ययः आयाति चेत् गणम् अनुसृत्य भेदः भवति. किमस्ति चेत् एकैकस्य गणस्य भिन्नं भिन्नं विकरणप्रत्ययः अस्ति किल, अतः सिद्धरूपेण सिद्धरूपस्य भेदत्वम् अस्ति.
भेदः कुत्र भवति भगिनि?
विकरणप्रत्यय इस् डिफरेण्ट् फार् एव्री गण. वि जस्ट् लुक्ड् अट् दोस् 9 सूत्रस्. एव्रि गण हेस् अ डिफरेण्ट् विकरणप्रत्ययः. सो बिफोर् द थिङ्ग् प्रत्यय, इफ् द विकरणप्रत्यय दट् कम्स् इस् डिफरेण्ट् फार् ईच् गण, देन् दि फार्म् द फैनल् फार्म् विल् बि डिफरेण्ट् depending on which gana the word belongs to.
Okay, so
but four of them, the vikarana pratyaya comes if the thing pratyaya is a sarvadhatuka, and we know the thing pratyaya is sarvadhatuka by the general rule thing shit sarvadhatukam. But we also know that for only four of the lakaras we see the difference. For six of them we don't see the difference. So which means the thing pratyaya, so how do we achieve that? That's what he's saying. There are two ways in which that sarvadhatukatvam of the thing pratyaya or something happens by which the vikarana pratyaya does not come for those six lakaras.
Vikarana pratyaya does not come, or
that is given in the next section.
Okay.
Sarvadhatuka lakara artha dhatuka lakara explains why it doesn't come.
Okay.
Right. So the thing is, it is that something or other stops that vikarana pratyaya from coming for those six lakaras.
So I think it is called चतुर्षु गणेषु गणनिमित्तिक विकरण प्रत्यय इति उच्यते. अन्यत् षष्ठसु लकार निमित्तिक विकरण प्रत्यय इति उच्यते. द्वयोर्मध्ये भेदः अस्ति. गणनिमित्तिक विकरण प्रत्ययस्य रूपं भिन्न भिन्न भवति तत् विकरण अनुसृत्य. अन्ये षष्ठेषु गणेषु punarekavaram, I think they are divided into 14 things in next coming lesson.
Sarvadhatuka pratyaya asti kritva sarvadhatuka lakaram iti mata Pushpa Dikshit datta nama asti samya asti
for the four
lakaras. Only the gana nimitti kritya sap prabhadya anya pratyaya ayanti. But for the remaining six, it is the lakara nimitti kritya, gana nimitti. Both are called vikarana pratyaya only. One is called ganiya vikarana pratyaya. The other is called
lakara nimitti.
Okay, so yeah, I was wrong then. I shouldn't have said just vikarana pratyaya. Okay. Thank you.
Okay, thank you.
Thank you.
Confused.
still confused?
Yeah.
Little bit better, but still a little bit confused because the lakara, there are 10 lakaras. We have 10 ganas, and lakara just tells the kalarthaka lakara is, and
okay,
according to
let me put it simply. See, there are 4 lakaras: lat, lot, lung, vidhi, ling. Out of the 10 lakaras, these 4 lakaras, in the process of the dhatu formation, if there is a kartrarthaka sarvadhatuka pratyaya, that is thing, yes, shit. When the dhatu followed by thing, shit, then kartari shap is uniform for all the 4 lakaras of lat, lot, ling, vidiling. Whereas in the other 6, it is not kartarthaka sarvadadigam, because immediately after lat, I mean the lakara, lrit, let us say lrit or any other lakara other than the 4, a lakara nimitti kritya pratyaya comes in between the thing pratyayanam dadunam madhye. Because of that pratyaya comes, for example, in the case of lrit, the sya comes, because of which we get bhavishyati, patishyati. The sya is because of the lrit. Because the sya comes in between, kartari shap cannot come there. Because kartari shap can come only if it is a sarvadhatukam. Whereas sya is not sarvadhatukam, because it is not thing, it is not shit, it is sya. So it doesn't come under thing, it doesn't come under shit. Because it is sya, it is called ardhadhatukam. That is the difference between sarvadhatuka lakara and ardhadhatuka lakara. Because sya has come, kartari shap cannot be deployed because it is only for sarvadhatukam. So the 6 lakaras we will take up later. For the sarvadhatukam, where there is thing and shit, kartari shap comes first as a common rule, that is called Utsarga Sutram. Then the importance will shift from Kartari Shab to what is the Dhatu and Gana. Whether it is Swadi Gana, Adadi Gana, Tunadi Gana, Rudadi Gana. Based on that, the Kartari Shab, in that Shab will be Prashabam Prapadya, Snu, Sna, Snam, U, Ityadi Pratyaya will replace the Shab. The kartari shap will become kartari snam, but we don't use the word kartari there again, but the whole sutra will be replaced with that 9 sutras which we read, no? Tana adikradmya u ruda adibhya snam.
Right.
So the shap will be replaced by the respective ganan nimitti kritya pratyaya, and that pratyaya will act upon the dhatu. Whether it should have guna, whether it should have any changes in the dhatu, like sarvadhatuka ardhadhatukayo, pugandalu upadasya, the gunam, gunam nimitti kritya changes in the dhatu or not. These things will happen only for the 4 lakaras, which is lat, lot, ling, vidhili. That is why in these 4, we get all variations of forms of dhatus. Whereas in the remaining 6 lakaras, because it is ardha dhatugatvam, the gana nimitti kritya 10 doesn't come. So here in these 4, the 4 lakaras plus 10 ganas. So you have a combination of permutation combination of 10 in 4, 40 combinations. Whereas in the other one, one lakara will have only one form. Syati means it's only syati. Whether it is
Rit or the other lakaras, you know, that Riti, Lungi, Ringi, and Ashirling, whether or any of those lakaras, we will have only Sya only.
Okay.
Because there the Dadu's Gana is not at all considered. Is it clear now?
Yeah, it's clear. Thank you.
Okay. Dhanyavada.
Dhanyavada.
Sujata Bhagini Bhavati Patitam Ichyate Kila?
Nama Bhagini. I couldn't find today.
Oh, you couldn't find the Karapatra?
Yeah, where to read. Yeah.
Oh, okay. Okay, it is in H. Do you have the Karapatra open?
Yeah, I got this one. I don't know. I could not find where. Ting Siddhecha Lakaranam.
Correct. So, if you page down around 2/3 of the way down the H section.
Okay,
H,
okay.
That's where we... H. Sarva Dhatuka Lakaraha, Adya Dhatuka Lakaraha Cha. Section H.
Sarva Dhatuka, H, okay. Adya Dhatuka Lakaraha. Atra, Atra Kachana Siddhantaha Avagantavyaha. Dhatu Na Yaha Prachayaha Sakshat Purataha Drushyate Tasya Prachayasya Swabhavanugunam Karyam Bhavishyati. Saha Prachayaha Sarvadhatuka Chet Tarihi Katrarbe Kartari Prayoge Kartari Shep Ichanena Shep Vitaran Prachayaha Vihitaha Bhavati. Adhatu Ting Prachayoho Matye Saha Prachayaha Ardhadhatuka Chet Tarihi Kartari Shep Ichasya Prashakti Eva Prashakti Nasti Eva Apitu Idagamo Vicharaha Vihitaha Apaha Asmakam Chintanam Idam Dhatoh Sakshat Purataha Yaha Prachayaha Asti Tasya Swabhavaha Kaha. Kachana Siddhantaha Asti Prachaya Swabhava Tvena Karyam Bhavishyati.
Kaha Pratyaya Bhagini?
Dhatoho
Purataha Pratyaya, but also Sakshat Purataha, meaning directly afterwards, immediately following.
But
immediately after, like we can have multiple Pratyayas after Dhatu, but Sakshat is saying it has to be directly after the Dhatu.
Okay. Dhanyavada. Svabhava anugunam karyam bhavishya. Saha prachayaha sarvadhatuka dhatuka chet. Tarihi prachaya sarvadhatuka masti chet. Tarihi katrade katari shap vikrana prachayaha drushyate. Dhatu ting prachayoho majje saha prachaya vikrana prachaya dhatu ting prachaya majje bhavati ardha dhatuka chet kartari shap ichyasya prashakti nasti ardha dhatuka prachaya asti chet shap prachaya karyam na karoti.
Hmm.
Satyam Bhagini?
Satyam. Okay. This is something I read about how we can learn, like, just with the information we have, if we speculate, what we have following is the, after the dhatu, and that is a sarvadhatukam. Now we know for six lakaras it is going to be stopped.
Yeah.
So if we can speculate on how it could be stopped. Like if there is a sutram that starts says what follows
it.
But right, but suppose something comes in between the two, which is Ardhadhatuka Pratyaya, like Mahodaya was saying, Aravind Mahodaya.
Mm-hmm.
Because the tip still follows the dhatu, but now there is something in between. So that's where that what directly follows the dhatu comes into effect.
Then idagama.
Yeah, then
idagama. Idagama. Dasesu lakareshu cheturnam lakaranam krute dhatu na sakshat sarvadhatuka ting pratyayah drushyate te cha chatvarah lakarah e lat lot lang vidhing पुनः स्मर्यतां यत् तीषित् सर्वधातुकम् इत्यनेन सर्वे अष्टादश तिङ् प्रत्ययाः सार्वधातुकसंज्ञकाः सन्ति एव अतः प्रत्ययस्य सार्वधातुकत्वं सामान्यं नाम डिफाल्ट् अग्रे इतोपि किमपि न क्रियते चेत् सर्वेषां लकाराणां एषा एव स्थितिः भविष्यति सर्वदा लट् लोट् लङ् विदलिङ्ग् ये लकाराः सर्वदा तिंशित् सर्वधातुकम् ये इति सूत्रेण प्रत्यय सर्वधातुक सर्वधातुक अष्टादश तिङ् प्रत्ययाः प्रत्ययाः सन्ति सर्वधातुक सामान अग्रे इतोपि किमपि न न अवगतं भगिनि
किञ्चित् कार्यं अग्रे करोमि चेत् एव आर्धधातुकत्वं भवति किमपि कार्यं नास्ति चेत् धातुः तिङ् प्रत्ययः एव पश्यति तिङ् प्रत्ययः सार्वधातुकः अतः गणः अनुसृत्य भेदः भवति गणमनुसृत्य भेदः भवति सो अग्रे किञ्चित् कार्यमस्ति इति महोदय सूचयति
धन्यवादः भगिनि उदाहरण अग्रे पठ
पठतु
लट् उदाहरण लट् लकारः अप् योगः लट् कर्तरि शप् तदा तत् प्रभाज्य स्वादिभ्यः स्नु आप् योगः स्नु योगः ति आप स्वादिभ्यः विकरणप्रत्ययः स्नु अस्ति इत्यनेन आप् योगः नु योगः ति आप् नु इति अङ्गमस्ति इति अङ्गम् ति सार्वधातुकार्धधातुकयोः इत्यनेन इकः गुणः आप्नो योगः ति वर्णमेलनेन आप्नोति इति भवति. सम्यक् अस्ति मा भगिनी?
सम्यक् अस्ति.
अवरेकवारं पठामि.
अस्तु, पठतु.
आप् योगः लट् कर्तरि शप् तदा तत्प्रभाज्य स्वादिभ्यः स्नु विकरणप्रत्ययः अस्ति. आप् योगः स्नु योगः ति आप् शकारस्य लोपः भवति, नु एव तिष्ठति. आप् योगः नु योगः ति आप्नु इति अङ्गमस्ति. आप्नु योगः ति सर्वधातुकार्धधातुकयोः इत्यनेन इकः गुणः. इकः गुणः आप्नो वो भवति, आप्नो योगः ति वर्णमेलने आप्नोति इति निष्पद्यते.
समीचीनं भगिनि,
धन्यवादः. अग्रे पठामः भगिनि?
सेक्षन् पठतु.
परन्तु षण्णां लकाराणाम् अर्धधातुकत्वं वर्तते इत्युक्तौ कत्रर्थेऽपि शप् विकरणप्रत्ययः नैव विहितः. एतत् कथं सम्भवति? कथम् एतादृशी स्थिति निष्पद्यते? प्राणिनः एषा षण्णां लकाराणां सिद्धप्रत्ययानाम् अर्धधातुकत्वं साधयित्वं मार्गद्वयेन. अर्धधातुक लकाराणां विवरणं दत्तमस्ति. कत्रर्थे शप् विकरण प्रत्यय नैव न दृश्यते. कथं सम्भवति? एतत् कथम् अस्ति इत्यनेन अव
तिङ् प्रत्यय अस्ति एव. दशानां लकाराणां तिङ् प्रत्यय अस्ति एव, परन्तु शप्न आयाति अन्येन मार्गेण इति.
प्रत्ययेन अर्धधातुकत्वं साधयति मार्ग अर्धधातुक लकाराणां मार्गः द्वयम् अस्ति. अग्रे दत्तमस्ति.
अस्तु,
धन्यवादः.
धन्यवादः. ओके, अहं पठामि. द्वयोः लकारयोः कृते लिट् च आशीर्लिङ्गी च पाणिनिः तयोः आर्धधातुकत्वं साक्षात् विदधाति. लिट् च आशीर्लिङ्ग् च पाणिनिः वदति ते आर्धधातुकः एव. सूत्रम् अस्ति तिङ्क्षित् सार्वधातुकम् अनन्तरम् आर्धधातुकं शेषः अनन्तरं लिच्च. अहं मन्ये लिच्च इत्यस्य अनुवृत्तिः आर्धधातुकम् इति.
आम् आम् आम्.
लिच्च आर्धधातुकम् लिङ्ग् आशिषि च आर्धधातुकम् आर्धधातुकम् इति अनुवृत्तिः भवति लिच्च लिङ्ग् आशिषि च इति सूत्रद्वयोः. ओके, येषां सूत्राणां सूत्रसङ्ख्यां पश्यन्तु क्रमेण सर्वाणि. सूत्रं क्रमेण भवन्ति, अतः अनुवृत्तिः सरला. तिङ्क्षित् सार्वधातुकम् इत्यनेन सर्वे तिङ् प्रत्ययाः षित् प्रत्ययाः च सार्वधातुकाः. आर्धधातुकं शेषः वक्ति यत् ये प्रत्ययाः धातुभ्यः विहिताः तिङ्क्षित् भिन्नाः ते सर्वे आर्धधातुकाः. तदा लिच् इत्यनेन पाणिनिः वदति यत् लिटः तिङ् प्रत्ययाः यद्यपि तिङ्गः परन्तु तेऽपि आर्धधातुकाः. लिङ्ग् आशिषि इत्यनेन आशीर्लिङ्गः अष्टादश तिङ् प्रत्ययाः अपि तथैव साक्षात् अपवादत्वेन आर्धधातुकाः. पाणिनिः लिट् आशीर्लिङ्ग् इति द्वे द्वौ लकारौ धातुः तिङ् प्रत्ययः पश्यति एव, परन्तु तिङ् प्रत्ययाः सार्वधातुकाः न अपवादत्वेन. किञ्चित् इस् दट् क्लियर् आर् शुड् वि डिस्कस् दट्?
No, I think it's clear, at least for me.
Okay, so for those two lakaras, Panini is just saying the dhatu see the thing pratyayas, but the thing pratyayas are declared to be not sarvada, they are declared to be ardhadhatuka. Which means vikarana pratyayah madhye na agachati, ataha rupasya bedam nas, gana manasrutya rupasya bedam nasti. सिद्धरूपस्य भेदं नास्ति. अत्र लिटः आशीर्लिङ्गः च अष्टादशानां तिङ्प्रत्ययानां स्वभावं साक्षात् परिवर्तयति. प्रथमतया तिङ्क्षित् सार्वधातुकम् इत्यनेन अनयोरपि द्वयोः लकारयोः तिङ्प्रत्ययाः सार्वधातुकसंज्ञकाः, परन्तु लिच्च लिङ्गाशिषि इत्याभ्यां सूत्राभ्याम् आर्धधातुकं आर्धधातुकत्वं विहितम्. अतः अत्र ईडागमो विचारः न तु विकरणप्रत्ययागमनम्. कर्तृत्वे अनयोर् लकारयोः गणभेदो नास्ति. तिङ् प्रत्ययः प्रथमतया सार्वधातुकमेव अस्ति, अनन्तरं लकारम् अनुसृत्य तस्य सार्वधातुकत्वं परिवर्तयति. आर्धधातुकप्रत्ययाः इति भवन्ति, अतः इडागमविचारः एव भवति. लिट् आशीर्लिङ्ग् इति द्वयोः लकारयोः इडागमविचारः एव भवन्ति. Did we continue past this? I think we stopped here in the class.
Yeah, we stopped long back in class.
Oh, we stopped long back? Okay.
Yeah, I don't think we did the Dvayoho. We just did the first paragraph of Sarvadhartuka Lakara. We didn't even go to Dashalakara issue. Because I think Mahoday was explaining the Samanadhikarana and that took up some time.
Yeah, okay. Yeah. This is fun. We can almost understand it by reading it ourselves, I think, as a group. So do you want to proceed or stop now? It's close to 10.
We can stop, but maybe you know, one of us can summarize what we learned till now. Because we have...
Like
oh, I shouldn't have opened my mouth.
No.
I can summarize it in English, but in Sanskrit it's going to be difficult.
That's
so
fine.
We have 10 lakaras. Yeah, so we have 10 lakaras. And in that, we have 4 lakaras where the dhatus, which are the 1,000 dhatus, are divided into 10 ganas. The 10 gana or 10 gana classification comes. Because there is a different vikarana pratyaya that comes in between the dhatu and the ting pratyaya. Whereas this differentiation is not seen in the other 6 lakaras in the kartari prayoga, which is the action. Now, why does it happen, or how does Panini identify that, or how does he go through the process of defining this? He starts off with all the pratyaya, all the ting pratyaya being sarvadhatuka. And after that, he starts making the, so that's the Utsarga Sutra, or that is the common denominator for all. Everything is a sarvadhatuka, everything pratyaya, the 18 are sarvadhatuka. And then he starts defining that, okay, anything that is different from ting or shit is ardhadhatuka. Then within that, he also says, okay, litiche. So if your ting pratyaya, although I said it was sarvadhatuka to begin with, when it is applied in the lit lakara, it becomes an ardhadhatuka. And it does the same for the ashirling as well. When it is the ling ling lakara, the ting pratyaya, he specifically says is ardhadhatuka. And that is why, because it is ardhadhatuka, the kartari shabd in sarvadhatuka will not apply. So all the other 10 sutras that we saw before, Adi Prabhriti Vyashap and Divadi Vyashan, etc., they don't apply at all because the ting pratyaya that has come after the dhatu is now ardhadhatuka, not sarvadhatuka.